नाइन्थ चैप्टर भगवद गीता भगवानुवाच इदंतु ते गुह्यतमं प्रवक्ष्याम्य न सूयवे ज्ञानं विज्ञान सहितं जज्ञत्या मोक्षसे सुवा असद्दधाणा पुरुषा धर्मस्यास परंतपं अप्राप्य मां निवर्तन्ति मृत्यु संसारवत्मणि। मया ततमिदं सर्वं जगद्भक्तमूर्तिना मत्साणि सर्वभूतानि न चाहं तेषवस्थितः। यथाकाशस्थितो नित्यं वायु सर्वो गतो महान् तथा सर्वाणि भूतानि मत्साणि तुपधारय। सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकां कल्पक्षये पुनस्त्राणि कल्पादो विसृजाम्यहम्। प्रकृतिं श्यामवस्त्रभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृष्ण मवसं प्रकृति वशा नशमांग तानि कर्माणि निवदनति धनंजय उदासीन बदासीन मसक्तं तेषु कर्मसु। मयाध्यक्षेन प्रकृतिः सुयते सचराचरम् हेतुनानेन कौन्तेय जगद्वी परिवर्तते। अब जानन्ति मां मूढा मानुषिन्तनुवाश्रितं परं भावमजानन्तो ममोभूतमहेश्वरम्। मोघासा मोघकर्माण मोघज्ञानाविचेतसः राक्षसी मासरिं चैव प्रकृतिं मोहिनीं सिता। महात्मानस्तु मां प्रार्थ्यं दैवीं प्रकृतिमाश्रितः भजन्त्य नन्न मनसो नत्याभूतादिमभ्यं सततं कीर्तन्तमां यतन्तस्य दृढव्रता नमस्सन्तश्च मां भक्त्या नित्यजुक्त्या उपासते। ज्ञानजज्ञेना चापन्नी जजन्तो मामुपासते। एकत्वेन पृथक्तेन बहुधा विशतो मुखम् अहं गतोरहं यज्ञं सदाह महमौषधं मन्त्रोह महमेवाज्ञं महामग्निरहं हुतं गतिर्भक्त्या प्रभो साक्षी निवासशरणं श्री प्रभव प्रलयस्थानं निधनं बीजमभ्यं। तपामहं महं वर्षं निगृह्णामुत्सृजामि च आमृतं चैव मृत्युश्च सदसच्चाहमर्जुन। त्रिविद्यामाङ् सोमपापुतपापा जज्ञैरिष्ट्या सर्गतिं प्रार्थयन्ति ते पन्नमाश्याद्र सुरेन्द्रलोक मत्स्नन्ति दिव्यान् दिवि देव भोगान्। ते तं भुक्त्या सर्गलोकं विशालं चीने पुण्ये मत्तलोकं विशन्ति। एवं त्रिधर्म मनुप्रपन्या गतागतं कामकामा लवन्ति। अनन्न चिंतन तो मां जना परिपाशते तीसांग नित्याभिजुक्ताणां जुगच्छीमं भामहम्। जिपन्न देवता भक्त्या जजन्ति सद्ध्यान्वितः तेपि मामेव कौन्तेया जजन्त विधिपूर्वकम्। अहं सर्वजज्ञानां भोक्ता च प्रभुरेव च न तु माम् अभिजानन्ति तत्ते नातश्च बन्ति ते। यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रतः भूतानि यान्ति भूतेज्या जान्ति मज्जाजिनोऽपि माम्। पत्रं पुष्पं फलं तोयं जूमि भक्त्या प्रयच्छति तदहं भक्तुपोहितामस्नामि प्रजतात्मनः। जत्करोषि जदास्नासि जज्जुहोषि ददासि जत् जत्तपस्सि कौन्तेया तत्कुरुष्यमदर्पणम्। शुभासु अफलैरेवं मोक्षसि कर्मबन्धने संन्यास जोगयुक्त्यात्मा विजुक्तो मां पश्यसि। समोहं सर्वभूतेषु न मे देश्यस्य न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चापहम्। अपि ते सुदुराचार भजते मामनन्नभाक् साधुरीव समन्तव्य सम्यक् भवसिता हि सा। क्षिप्रं भवति धर्मात्मा सस्यक्षान्ति निगच्छति कौन्त्या प्रतिजानीहि न मे भक्तः प्रणश्यति। मां हि पार्थवपाश्रित्य जीपी शुभ पापजूनः स्त्रियो वैश्यास्तथा शूद्रा सेऽपि यान्ति पराङ्गतिं किं पुनाद्ब्राह्मणा पुण्या भक्त्या राजर्षयस्तथा अनित्यामसुखं लोकमिमं प्राप भजस्व माम्। मन्मना भवमद्भक्तो मद्याजी मां नमस्कुरु मामेवैषसि युक्तैव मात्मानमत्मनायनः। ओम तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे राजविद्या राजगह्ययोगो नाम नवम अध्यायः।